ओम नमो भगवते वासुदेवाय। अथाष्टादशोऽध्यायः। सूत उवाच, यो वै द्रौण्यस्त्र विप्लुष्टो न मातुरुदरे मृतः, अनुग्रहात् भगवतः कृष्णस्याद्भुतकर्मणः, ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात्, न सम्मोहोरुभयात् भगवत्यर्पिताशयः, उत्सृज्य सर्वतः सङ्गम् विज्ञाताजितसंस्थितिः, वैयासकेर्जहौ शिष्यो गङ्गायाम् स्वम् कलेवरम्। नोत्तमश्लोकवार्तानाम् जुषताम् तत्कथामृतम्, स्यात् सम्भ्रमोऽन्तकालेऽपि स्मरताम् तत्पदाम्बुजम्। तावत्कलिर्न प्रभवेत् प्रविष्टोऽपिह सर्वतः, यावदीशो महानुर्व्यामाभिमन्यव एकराट्। यस्मिन्नह नियर्येव भगवानुत्ससर्जगाम्, तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः। नानुद्वेष्टिकलिम् सम्राट् सारङ्ग इव सारभुक्, कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत्। किम् नु बालेषु सूरेण कलिनाधीरभीरुणा, अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते। उपवर्णितमेतद्वः पुण्यम् पारीक्षितम् मया, वासुदेवकथोपेतमाख्यानम् यदपृच्छत। यायाः कथा भगवतः कथनीयोरुकर्मणः, गुणकर्माश्रया पुंभिः संसेव्यास्ताबभूषुभिः। ऋषयौचुः, सूतजीवसमा सौम्य शाश्वतीर्विशदम् यशः, यस्त्वम् शंससि कृष्णस्य मर्त्यानामृतम् हिनः। कर्मणि यस्मिन्ननाश्वासे धूमधूम्रात्मनाम् भवान्, आपाययति गोविन्द पादपद्मासवम् मधु। तुलयामलवेनापि न स्वर्गम् न पुनर्भवम्, भगवत्सङ्गिसङ्गस्य मर्त्यानाम् किमुताशिषः। को नाम तृप्येत् रसवित्कथायाम् महत्तमैकान्तपरायणस्य, नान्तम् गुणानामगुणस्य जग्मुर्योगेश्वराय भवपाद्ममुख्याः। तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य, हरेरुदारम् चरितम् विशुद्धम् शुश्रूषताम् नो वितनोतु विद्वन्। स वै महाभागवतः परीक्षित् येनापवर्गाख्यमदब्रबुद्धिः, ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्। तन्नः परम् पुण्यमसंवृतार्थमाख्यानमत्यद्भुतयोगनिष्ठम्, आख्यायनन्ताचरितोपपन्नम् पारीक्षितम् भागवताभिरामम्। सूत उवाच, अहो वयम् जन्मभृतोऽद्यहास्म, वृद्धानुवृत्त्यापि विलोम जाताः। दौष्कुल्यमाधिम् विधुनोति शीघ्रम् महत्तमानामभिधानयोगः, कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य। योऽनन्तशक्तिर्भगवानन्तो महद्गुणत्वाद् यमनन्तमाहुः, एतावतालम् ननु सूचितेन गुणैरसाम्यानतिशायनस्य। हित्वेतरान् प्रार्थयतो विभूतिर्यस्याङ्ग्रिरेणुम् जुषतेन भीप्सोः, अथापि यत्पादनखावसृष्टम् जगद्विरिञ्चोपहृतार्हणाम्भः। शेषम् पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः, यत्रानुरक्ता सहसैव धीरा व्यपोय्य देहादिषु सङ्गमूढम्। व्रजन्ति तत्पारमहंस्यमन्त्यम् यस्मिन्नहिंसोपशमस्वधर्मः, अहम् विपृष्टोर्यमणो भवद्भिराचक्ष आत्मावगमोऽत्र यावान्। नभः पतन्त्यात्मसमम् पतत्रिणस्तथा समम् विष्णुगतिम् विपश्चितः, एकदा धनुरुद्यम्य विचरन् मृगयाम् वने, मृगाननुगतः श्रान्तक्षुदितस्त्रिशुतो भृशम्। जलाशयमचक्षाणः प्रविवेशतमाश्रमम्, तदर्शमुनिमासीनम् शान्तम् मिलितलोचनम्, प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम्। स्थानत्रयात् परम् प्राप्तम् ब्रह्मभूतमविक्रियम्, विप्रकीर्णजटाच्छन्नम् रौरवेणाचिनेन च, विशुष्यत्तालुरुदकम् तथा भूतमयाचत। अलब्धतृणभूम्यादिरसम् प्राप्तार्घ्यसूनृतः, अवज्ञातमिवात्मानम् मन्यमानश्चुकोपः। अभूतपूर्वः सहसा क्षुत्रिभ्यामर्दितात्मनः, ब्राह्मणम् प्रत्यभूत् ब्रह्मन् मत्सरो मन्युरेव च। स तु ब्रह्मऋषेरंसे गतासु मुरुगमृषा, विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत्। एष किम् निभृता शेषकर्णो मीलिते क्षणः, नृषा समाधिराहोऽस्वित् किम् नु स्यात् क्षत्रबन्धुभिः। तस्य पुत्रोति तेजस्वी विहरन् बालकोऽर्भकैः, राज्ञाघम् प्रापितम् तातम् श्रुत्वा तत्रेदमब्रवीत्, अहो अधर्मः पालानाम् पीवनाम् बलिभुजामिव, स्वामिन्यगम् यद्दासानाम् द्वारपानाम् शुनामिव। ब्राह्मणैः क्षत्रबन्धुर्द्वारपालो निरूपितः, स कथम् तद्गृहे द्वास्थः सभाण्डम् भोक्तुमर्हति। कृष्णे गते भगवति शास्त्रयुत्पथगामिना तद्भिन्न सेतु नद्याहं शास्मि पश्यत मे बलम् इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषि बालकः कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्जः इति लङ्घित मर्यादं तक्षकः सप्तमे हनि दंक्षति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठोरुरोदः स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम् विसृज्य पुत्रं पप्रच्छ वत्सकस्माद्धिरोदिषि केन वा ते अपकृतमित्युक्तः स न्यवेदयत् निशम्य सप्तम तदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् अहो बतां हो महदज्ञते कृतमल्पीयसि द्रोह उरुर्दमो धृतः न वैन्द्रभिर्नरदेवं पराख्यं सम्मातुमर्हस्य विपक्वबुद्धे यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतो भयाः प्रजाः अलक्ष्यमाणे नरदेवनां नीरथाङ्गपाणा वयमङ्गलोकः तदा हि चौरप्रचुरो विनङ्क्षत्य रक्ष्यमाणो विवरूथवत्क्षणात् तदद्य नः पापमुपैत्यनन्वयं न्यन्नष्टनाथस्य वसोर्विलुम्पकात् परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्य वोजनाः तदार्यधर्मश्च विलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः ततोऽर्थकामाभिनिवेशितात्मनां सुनां कपीनामिव वर्णशङ्करः धर्मपालो नरपतिः स तु सम्राट् बृहत्स्रवाः साक्षान्महाभागवतो राजर्षिर्हयमेधयात् क्षुत्रित्समयुतो दीनो नैवास्मच्छापमर्हति अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति तिरस्कृता विप्रलब्धा शप्ता क्षिप्ता हता अपि नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः न व्यथन्ति न हृष्यन्ति यत आत्मा गुणाश्रयः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्दे विप्रशापोपलम्भनं नामाष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।